इदम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। आदौ मुख्याः वार्ताः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशे योगोत्सवः सोत्साहम् आचरितः। तेन प्रख्यापितं यत् योगः मानसिकस्वास्थ्यात् शारीरिकस्वास्थ्यं प्रति एकमात्रो मार्गो विद्यते। सहैव मानवीयचेतनायाः प्रकटीकरणमस्ति योगः। प्रधानमन्त्रिणा कोलकाता नगरे स्वदेशे निर्मितानि त्रीणि भारतीय नौसेना मञ्चानि राष्ट्राय समर्पितानि। तेनोदीरितं यत् देशे रक्षा उत्पादन क्षमतायाः वर्धनाय विशेषाः प्रयासाः विधीयन्ते। अद्य भारते विदेशेषु च 5,000+ परीक्षाकेन्द्रेषु सुदृढ सुरक्षा व्यवस्थायाः अन्तः नीट यूजी इत्यस्य पुनः परीक्षा सुसम्पन्ना। अपि च क्रीडावार्तासु, महिला हॉकी क्रीडायां FIH महिला नेशन्स कप स्पर्धायाः चरमे द्वन्द्वे भारतेन न्यूजीलैंड दलं 2-0 इत्यंकान्तरालेन पराभूतम्। अथ वार्ताः विशदीकृत्य। प्रधानमन्त्री नरेन्द्र मोदी अद्य अन्ताराष्ट्रिय योग दिवसोपलक्ष्ये प्रत्यपादीत् यत् मानसिक स्वास्थ्यात् शारीरिक स्वास्थ्यं प्रति योगः एव एकमात्रो मार्गो विद्यते। प्रधानमन्त्रिणः नेतृत्वे कोलकाता नगरस्य रेड रोड स्थले मुख्यायोजनं सञ्जातम्, यत्र तेन सहस्रशः साधकैः सह सामान्य योग नियमानुसारं योगाभ्यासः कृतः।
योग केवल हमारे शारीरिक स्वास्थ्य पर ही फोकस नहीं करता, योग मानसिक स्वास्थ्य से शारीरिक स्वास्थ्य का मार्ग दिखाता है। इसलिए योग के विषय में युक्त चेष्टस्य कर्मसु कहा गया है, यानी हमें क्या करना चाहिए क्या नहीं करना चाहिए इसका बोध।
वर्षस्यास्य मुख्य विषये स्वस्थ वृद्धावस्थायै योगः इत्याख्ये विषये ब्रुवन् प्रधानमन्त्री सबलं निर्दिष्टवान् यत् योगः केवलं शारीरिक व्यायामो नैवास्ति, न च कश्चिदायुवर्गं प्रति सीमितः, अपि तु अयं मानवीय चेतनायाः प्रकटीकरणमस्ति।
When we speak of yoga for healthy aging, it means that we can work to ensure that age does not reduce human potential. Yoga can help human life to aspire for constant growth. Our target must be to be more flexible at 40 than we were at 20. Our target must be to be more energetic at 50. Then we were at 30. Our target must be to be more resistant to lifestyle disease at 70. Then we were at 50. This is where yoga can help us.
अवधेयास्पदं वर्तते यत् देशस्य अन्य भागेषु योगोत्सवः सोल्लासम् आचरितः। राष्ट्रपतिः द्रौपदी मुर्मुः मध्यप्रदेशस्थ जबलपुर नगरस्य गैरिसन ग्राउंड स्थले योगाभ्यासं कृतवती। तया प्रतिपादितं यत् योगः भारतस्य परम्परायाः उत्सवः अस्ति।
अंतर्राष्ट्रीय योग दिवस 2026 का थीम है योगा फॉर हेल्दी एजिंग। ये थीम समाज के वरिष्ठ सदस्यों के स्वस्थ सक्रिय आत्मनिर्भर एवं गरिमापूर्ण जीवन के लिए योग की उपयोगिता को रेखांकित करती है। आज हम जो जीवन शैली अपनाते हैं वही हमारे आने वाले समय के स्वास्थ्य एवं सुख का आधार बनती है।
उपराष्ट्रपतिः सीपी राधाकृष्णन वर्यः लद्दाखस्य लेहनगरे स्थिपुक क्रीडांगणे योगं कुर्वन् न्यगादीत् यत् योगः जीवने स्वास्थ्यस्य चरित्रस्य च कृते दीर्घकालीन निवेशो वर्तते। लोकसभाध्यक्षः ओम बिरला दिल्ल्यां संसद भवन परिसरे सामूहिक योगाभ्यासे भागं गृहीतवान्। रक्षामन्त्री राजनाथ सिंहः मेघालयस्य शिलांग नगरे पूर्वी वायु कमान मुख्यालयस्य आयोजने सम्मिलितो भूत्वा सर्वान् योगं दिनचर्यायाः भागं कर्तुम् आह्वानं कृतवान्। अद्य महाराष्ट्र पंजाब त्रिपुरा राज्येषु सोत्साहं सोल्लासं अन्ताराष्ट्रिय योग दिवसः आचरितः। महाराष्ट्रस्य राज्यपालः जिष्णुदेववर्मा लोकभवने भारतीय तट रक्षक बलस्य वरिष्ठाधिकारिभिः सह योगाभ्यासं कृतवान्। अपरपक्षे च मुख्यमंत्री देवेन्द्र फडणवीसः जुहु समुद्र तटे राज्यस्तरीय कार्यक्रमस्य नेतृत्वं विहितवान्। त्रिपुरायां राज्यस्य सर्वेषु मण्डलेषु सामूहिक योग सत्राणि संचालितानि। अगरतला नगरे आयोजित राज्यस्तरीय कार्यक्रमे मुख्यमंत्री डॉ माणिक साह मानसिक स्वास्थ्याय एकाग्रतायै अथ निरोग जीवनाय योगस्य महत्वं प्रख्यापितवान्। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। अद्य कृत्स्नेहि विश्वे अन्ताराष्ट्रिय योग दिवसः भारतीय प्रवासिनाम् अथ स्थानीय जनानां महदुल्लासेन आचरितः। अस्मिन्नेव क्रमे कतारस्य दोहा नगरे 2,000+ योग साधकाः एकत्रिताः अभवन्। ओमानस्य मस्चक नगरे स्थिते भारतीय दूतावासे एकः विशेषः कार्यक्रमः आयोजितः। बांग्लादेशस्य ढाका नगरे इंदिरा गांधी सांस्कृतिक केन्द्रेण आयोजिते योग सत्रस्य बृहद आयोजने शतशः नागरिकाः सम्मिलिताः अभवन्। सऊदी अरबस्य रियाद नगरे 500+ जनाः योगं कृतवन्तः, यद्धि अस्मिन् राज्ये योगस्य वर्धमानं आकर्षणं सूचयति। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य कोलकातायां स्वदेशे निर्मितानां त्रयाणां भारतीय नौसेना मञ्चानां INS दुनागिरी, INS संशोधकः, INS अग्रयश्च राष्ट्राय समर्पिताः। नौसेनायाः वॉरशिप डिजाइनर्स ब्यूरो इत्यनेन परिकल्पितं तथा गार्ड्स रीच शिल्प बिल्डर्स एंड इंजीनियर्स इत्यनेन निर्मिताः एताः नौकाः युद्धकार्याणि, जल ग्राफिक सर्वेक्षणं, जल निमग्न नौका विरोधि युद्धं च सुदृढं कर्तुम् अभिप्रेताः सन्ति। प्रधानमंत्री नरेन्द्र मोदी अवोचत् यत् अद्य भारतं स्वस्य सम्पूर्णं समुद्रीय पर्यावरण व्यवस्थां सुदृढं कुर्वदस्ति तथा च सागरमाला इत्यादयः उपक्रमाः अस्याः विशाल परिकल्पनायाः भागाः सन्ति। स्विट्जरलैंडस्य बर्गेनस्टॉक इति रमणीय नगरे ईरान अमेरिका देशयोर्मध्ये उच्चस्तरीयोपवेशनमद्य समारब्धम्। अमेरिकी प्रतिनिधिमण्डलस्य नेतृत्वं उपराष्ट्रपतिः जे सी वेन सहैव ईरानी प्रतिनिधिमण्डलस्य नेतृत्वं संसदाध्यक्षः मोहम्मद बागेर गालिबाफ कुरुतः। उभयोर देशयोर प्रतिनिधि मध्यस्थ देशाभ्यां पाकिस्तान कतारभ्यां सह तत्र सम्प्राप्तौ स्तः। 26,000+ नीट यूजी पुनः परीक्षा अद्य सम्पूर्णे देशे कठोर सुरक्षायाम् आयोजिता, यत्र भारतस्य 150+ नगरेषु, 14 वैदेशीयेषु नगरेषु च 5,000+ केन्द्रेषु 22,000+ परीक्षार्थिनः परीक्षायाम् सम्मिलिताः। राष्ट्रिय परीक्षा संस्थया उक्तं यत् परीक्षा आंग्लभाषायां 12 भारतीय भाषासु च आयोजिता आसीत्, यत्र छात्रानुकूल सुविधाः यथा पेयजलम्, ORS, एम्बुलेंस यानानि, केन्द्रेषु मातापितृभ्यः छायायुक्त प्रतीक्षा केन्द्राणि च स्थापितानि आसन्। परीक्षायाः प्राक् NTA इत्यनेन राष्ट्रव्यापी मॉक ड्रिल इत्यस्य आयोजनं कृतम्। केन्द्रीय शिक्षा मंत्री धर्मेन्द्र प्रधानः अवोचत् यत् परीक्षायाः सुगमतया संचालनाय सर्वाः आवश्यकोपायाः कृताः। महिला हॉकी क्रीडायाम् अद्य ऑकलैंड नगरे आयोजितायां FIH महिला नेशन्स कप स्पर्धायाः चरमे द्वन्द्वे भारतेन न्यूजीलैंड दलं 2-0 अंकैः पराभूय विजेत्री पदकम् अवाप्तम्। विजयेनानेन भारतीय दलेन FIH महिला प्रो लीग मध्ये स्थानं सुरक्षितं कृतम् इति वार्ताः।